सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वर गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः। पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं वन्दे संस्कृतमातरम्।
तत्र धन्यवादः महोदय। तत्र गुरुर्ब्रह्मा गुरुर्विष्णुः इति विसर्गः, विसर्गस्य उच्चारणं किञ्चित् करोतु। एवमेव गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः महेश्वरः इति किञ्चित् विसर्ग उच्चारणं, महेश्वरः इति मास्तु किञ्चित्। धन्यवादः महोदय। अस्तु, इदानीं वयं कुत्र स्मः? गतसप्ताहे वयं कं पाठं पठितवन्तः? वयं लङ्लकाररूपाणि वा कर्मणि भावे लङ् वा
त्रिविंशत्।
ओ, तत्र स्मः वा?
लोकहितं मम करणीयम्।
ओ नमस्ते भगिनी, स्वागतं। कथमस्ति भवती? अस्तु अस्तु अस्तु, नूतनं पाठं वा? उत्तमम्। अस्तु, लोकहितं मम करणीयम्, अत्र नूतनः प्रत्ययः, प्रत्ययद्वयम् अस्ति, प्रत्ययद्वयं वयं पठामः अस्मिन् पाठे। तौ कौ प्रत्ययौ? तव्यत् प्रत्ययः, अनीयत् प्रत्ययः इति प्रत्ययद्वयम्। अर्थः तु समानः एव, केवलं प्रत्ययः भिन्नभिन्नप्रत्ययः भवतः प्रत्ययद्वयं भवति, किन्तु प्रयोगः यदि वयं वाक्येषु एतयोः प्रयोगं कुर्मः अर्थः तु समानः एव, किन्तु कथम् अपि च कदा कुर्मः अस्य प्रत्ययस्य प्रयोगः इति प्रश्ने सति, तत्र विध्यर्थे कर्मणि प्रयोगे विध्यर्थे, अर्थः कः? कर्मणि प्रयोगे विध्यर्थे, विध्यर्थे विधि लिङ् इति पठितवन्तः खलु, तत्र पठेत् कुर्यात् जानीयात् इति, इत्युक्ते कः अर्थः तत्र? तत्र कर्तरिप्रयोगः, विधि लिङ् लकारः तु कर्तरिप्रयोगे भवति। एतं पाठं सर्वे एतं पाठं पठेयुः इति अहं वदामि, यदि अहं तादृशवाक्यं वदामि अर्थः कः? तत्र विद्यते तु मस्ट् शुड् शाल् मे बि कुड् वुड् इत्यस्मिन् अर्थे भवति, किन्तु यदा अहं वदामि सर्वे एतं पाठं पठेयुः, आल् आफ् यू मस्ट् रीड् दिस् लेसन् इति कर्तरिप्रयोगे भवति, तत्र विधि अर्थे। एवं कर्मणि प्रयोगे एतावत्पर्यन्तं वयं भिन्नभिन्नलकारान् कर्मणि प्रयोगे भिन्नभिन्नलकारान् पठितवन्तः, तत्र विधिलिङ्ग् अपि पठितवन्तः वा? नास्ति इति चिन्तयामि, विधिलिङ्ग् अपि पठितवन्तः। यदा वयं तादृशमेव भवति, अत्र अपि वन्देत, तत्र कर्तरिप्रयोगे वन्द् धातोः विधिलिङ्ग् लकारः प्रथमपुरुष एकवचनं कथं भवति? वन्देत, वन्देत, वन्देयातां, वन्देरन् इति कर्तरिप्रयोगः। अत्र इदानीं कर्मणि प्रयोगे एतयोः प्रत्यययोः प्रयोगं कुर्मः। उदाहरणार्थं प्रथमं वयं सर्वे वेङ्कटेशसुप्रभातं जानीमः, अत्र प्रथमं श्लोकमेव स्वीकुर्मः चेत् तत्रैव अस्ति। कः वक्तुम् इच्छति? तत्र छन्दसा वदतु कृपया। कः वक्तुं शक्नोति? कोऽपि नास्ति, कोऽपि नास्ति वा, श्रूयते वा मम ध्वनिः?
कथं
तत्र वेङ्कटेशसुप्रभातस्य प्रथमः श्लोकः अस्ति खलु?
अहं वदामि, कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते, कृष्णनरकार्दूल कर्तव्यं दैवमाह्नितम्।
कर्तव्यम्, कर्तव्यम् इति तस्मिन् श्लोके एव अस्ति, तव्यत् प्रत्ययः अस्ति। अस्तु, कर्तव्यं, तत्र अपि तव्यत् प्रत्ययः, अनीयप्रत्ययः करणीयम् इति भवति, अनीय करणीय करणीयं कर्तव्यम् इति अर्थः तु समानः। तत्र अपि त्रिषु लिङ्गेषु भवति प्रयोगाः, त्रिषु लिङ्गेषु भवति, त्रिषु वचनेषु, त्रिषु लिङ्गेषु विभक्तिरूपाणि अपि भवन्ति, एतेषामपि विभक्तिरूपाणि भवन्ति। एते तत्र कृदन्त, तत्र कृत्तुप्रत्ययाः, एते सर्वे कृत्तुप्रत्ययाः। तस्मात् यदा तत्र पठितवान्, पठितवन्तौ, पठितवन्तः, तव तु प्रत्ययस्य विभक्तिरूपाणि भवन्ति, एवमेव एतेषामपि, एतयोः अपि विभक्तिरूपाणि भवन्ति, त्रिषु लिङ्गेषु, त्रिषु वचनेषु भवति प्रयोगाः। उदाहरणार्थम् इदानीं बालकः पाठं पठति इति अत्र कः प्रयोगः? लट् लकारे केवलं सरलं वाक्यम् अस्ति एतत्। विधिलिङ्ग् वाक्यं वक्तुम् इच्छामि चेत् कथं वदामि अहम्? कर्तरिप्रयोगे कथं भवति?
बालकः पाठं पठनीयम्।
न न न, कर्तरिप्रयोगे,
कर्तरिप्रयोगे
पठेत्, बालकः पाठं पठेत्,
बालकः पाठं पठेत्, द बाय् शुड् रीड् द लेसन् इत्यस्मिन् अर्थे, बालकः पाठं पठेत् इति कर्तरिप्रयोगः। तदेव सरलं वाक्यं स्वीकुर्मः, कर्मणि प्रयोगे विद्यर्थे वर्तमानकाले कथं भवति? बालकेन पाठः पठनीयः, बालकेन पाठः पठनीयः अथवा बालकेन पाठः पठितव्यः। तव्यत् प्रत्ययम् उपयुज्य वदामः चेत् पठितव्यः, अनीयप्रत्यय उपयुज्य वदामः चेत् पठनीयः इति भवति, अर्थः तु समानः। तत्र पाठः इति पुल्लिङ्गे एकवचने अस्तु, तस्मात् पठनीयः, पठितव्यः इति उक्तवती अहम्। इदानीं पाठद्वयम् अस्ति इति चिन्तयामि, बालकः पाठौ पठेत् इति अहं वदामि, तत्र कर्तरिप्रयोगः बालकः पाठौ पठेत् इति, तत्र पाठद्वयम् अस्ति बालक। इदानीं द बाय् शुड् रीड् द टू लेसन्स् इत्यस्मिन् अर्थे पाठौ पठेत् इति उक्तवती कर्तरिप्रयोगे। कर्मणि प्रयोगे विद्यर्थे वक्तुम् इच्छामि चेत् तव्यतनीयरुपयुज्य कथं वदामि अहम्? पठ्यतां न, किमर्थं तव्यतनीयरुपयुज्य कर्मणि प्रयोगे इति उक्तवती, पठितव्यं न। कर्मणि प्रयोगे कः नियमः? कर्मपदम् अनुसृत्य क्रियापदम्। अत्र कर्मपदं किम्? वदतु,
द्विवचनं
इदानीं वदतु,
बालकेन पाठौ पठ्येताम्।
न न न, तव्यतनीयरुपयुज्य वदतु, लोट् न ललकारं मास्तु मह्यम्। इदानीं वयं तव्यतनीयपाठं पठन्तः स्मः, तदुपयुज्य वत् विद्यर्थे
पठितव्ये
पठितव्यौ
पठितव्यौ
बालकेन किम् उक्तवती अहम्? एतेषां तत्र एतयोः सर्वाणि विभक्तिरूपाणि सर्वे त्रिषु लिङ्गेषु त्रिषु वचनेषु अस्तु, तस्मात् तत्र बालकेन पाठौ पठितव्यौ अथवा पठनीयौ इति भवति. द टू लेसन् शुड् बि रेड् बै दि आर् स्टडीड् बै दि बाय् इति अर्थः तत्र. एवं ते लिख् दातु तत्र पठ दातु तदेव स्वीकुर्मः वयं. पुनः गीता भगवद्गीता इत्यस्मिन् अर्थे बालकः गीता पठेत् इति अहं वदामि. बालकः भगवद्गीता बालकः भगवद्गीतां पठेत् इति कर्तरिप्रयोगे. कर्मणि प्रयोगे कथं भवति?
बालकेन पाठः
भगवद्गीता इति उक्तवती अहं.
बालकेन भगवद्गीता गीता पठनीया
बालकेन
भगवद्गीता
पठनीया अथवा सव्यक् प्रत्ययम् उपयुज्य वदामः चेत् पठितव्या पठनीया पठितव्या इति भवति. एवमेव इदानीं पुस्तकं नपुंसकलिङ्गं स्वीकुर्मः.
भगिनी, वाट्स् द डिफरेन्स् बिट्वीन् पठनीया अण्ड् पठितव्या यूसेज् हियर्?
किम् उक्तवती अहम्? तत्र प्रयोगः समानः, अर्थः अपि समानः, प्रत्ययः एव भिन्नः प्रत्ययः. संस्कृतेन पृच्छतु कः भेदः इति पृच्छतु, कः भेदः? अत्र भेदः किमपि नास्ति, अर्थविषये भेदः किमपि नास्ति. अस्तु, समान अर्थः एव. तव्यत् प्रत्ययः एव तत्र भिन्नभिन्नप्रत्ययः. प्रयोगः वा अर्थः तु अर्थः वा समानः तत्र. वा तत्र भगवद्गीता पठितव्या अथवा पठनीया इत्यपि वक्तुं शक्नोमि, अर्थः तु समानः. अवगतम्?
अवगतम्.
इदानीं पुल्लिङ्गार्थम् एकम् उदाहरणम् उक्तं मया, तत्र पाठः इति स्वीकृत्य. स्त्रीलिङ्गार्थम् अत्र भगवद्गीता इति स्वीकृत्य उक्तवती. इदानीं नपुंसकलिङ्गार्थम् अहं पुस्तकम् इति स्वीकरोमि अहम्. अस्तु, बालकः पुस्तकं पठेत् इति विद्यर्थे अहं वदामि कर्तरिप्रयोगे. बालकः पुस्तकं पठेत् इति कर्मणि प्रयोगे कथं भवति?
बालकेन पुस्तकः
पुस्तकम् एव नपुंसकलिङ्गे खलु.
आम् भगिनि, बालकेन पुस्तकं
पठितव्यं
पठितव्यं पठनीयं
पठनीयम्
अथवा पठितव्यं. बालकेन पुस्तकं पठितव्यम् अथवा पठनीयम् इति वक्तुं शक्नुमः. किमर्थं? तत्र केवलम् एकमेव पुस्तकम् उक्तवती. इदानीं बहूनि पुस्तकानि सन्ति इति चिन्तयामः. बालकः पुस्तकानि पठेत् इति कर्तरिप्रयोगः. बालकः पुस्तकानि पठेत् इति कर्तरिप्रयोगे विद्यर्थे उक्तवती अहम्. तदेव वाक्यं स्वीकृत्य कर्मणि प्रयोगे कथं वदामि अहम्? बालकेन पुस्तकानि पठितव्यानि अथवा पठनीयानि. अवगतं वा? एवमेव बहवः ग्रन्थाः सन्ति पुल्लिङ्गे, पुनः बहुवचने बहवः ग्रन्थाः वा पाठाः वा सन्ति इति चिन्तयामः. कर्तरिप्रयोगे बालकः पाठान् पठेत् अथवा बालकः ग्रन्थान् पठेत् इति वाक्यं कर्तरिप्रयोगे. तदेव वाक्यम् अहं परिवर्तयितुम् इच्छामि इदानीं कर्मणि प्रयोगे विद्यर्थे. बालकेन ग्रन्थाः पठितव्याः अथवा पठनीयाः. बहुवचने प्रथमाविभक्तिः बहुवचनं, पठितव्यः इत्यस्य बहुवचनं पठितव्याः. अकारान्तपुल्लिङ्गशब्दस्य प्रथमाविभक्ति बहुवचनं बालकाः तावदेव भवति पठितव्याः इति. पठनीयाः पठितव्याः इति भवति. ग्रन्थाः पठितव्याः, ग्रन्थाः पठनीयाः. अस्तु, एवं भवति. तदेव नियमः तु कर्मणि प्रयोगस्य नियमः एव. तत्र कर्तृपदं तृतीयाविभक्तौ, कर्मपदं प्रथमाविभक्तौ, क्रियापदं तत्र कर्मपदम् अनुसृत्य भवति. क्रियापदस्य वचनं अत्र अत्र तव्यतनीयप्रत्ययोगे तत्र प्रत्ययोः विषये तत्र लिङ्गं भवति. तव्या तव्यम् अनन्तरं तव्यः, एवमेव नीयः नीया नीयम् इति भवति. तस्मात् इदानीं पुनः वयं गच्छामः तत्र. एवमेव कृ धातोः कर्तव्यं करणीयं, कर्तव्या करणीया, कर्तव्यः करणीयः इति लिङ्गत्रयेषु भवति. किमर्थम् अत्र इदानीं वेङ्कटेशसुप्रभातश्लोकमेव स्वीकुर्मः उदाहरणार्थं. तत्र विश्वामित्रः रामम् उद्दिश्य किं वदति, तत्र उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् इति वदति. किमर्थम् अत्र कर्तव्यम् इति कस्मिन् लिङ्गे अस्ति? नपुंसकलिङ्गे अस्ति कर्तव्यम्. किं कर्तव्यम्? आह्निकम्, दैवमाह्निकम्. दैवं तत्र विशेषणम्, आह्निकं कर्तव्यम्. कीदृशम् आह्निकं कर्तव्यम्? दैवमाह्निकं कर्तव्यम्, दैवम् आह्निकं कर्तव्यम् इति. तत्र डिवैन् रिचुवल्स् डैलि. आह्निकम् इत्युक्ते अहम् इत्युक्ते दिनः इति अर्थः. तत्र डैलि रिचुवल्स्, तत्र डिवैन् रिचुवल्स्, दैवम् आह्निकं कर्तव्यम् इति. तत्र सन्ध्यावन्दनम् इत्यादि अस्ति खलु, कर्तव्यम् इत्यस्मिन् अर्थे सः वदति. अत्र आह्निकम् इति नपुंसकलिङ्गे, तस्मात् कारणात् एकवचने अस्ति, तस्मात् अत्र कर्तव्यम् इति तदपि नपुंसकलिङ्गे एकवचने अस्ति. तदेव अवगतं वा? अस्तु, अत्र एकं गीतमस्ति, अनन्तरं पठामः. तत्र व्याकरणविषयः अपि अस्ति, अग्रिमसप्ताहे अहं तस्य विवरणं दास्यामि. इदानीं मास्तु. इदानीम् अवधेयम् इति अग्रिमपृष्ठे अस्ति, तद् पठामः. प्रथमं तद् पठामः, पठित्वा तदनन्तरम् अन्ते एव वयं गीतं पठामः. नित्यानन्दमहोदय, भवान् पठतु.
अवधेयम् एतानि रूपाणि सावधानतया अवलोकयत् वदनीयं वद वद् योग अनियम् अनियर्
अनियर् वदनीयम् अथवा अनियर् प्रत्यय उपयुज्य वदामः चेत् भक्त तत्र
वदनीयं
वदनीयम् इति अनियर् प्रत्ययः अत्र.
गणनीयं गणयोग अनियम्
अत्र पूर्वतनपुटे एकं गीतम् अस्ति खलु, ततः अत्र दत्तं पदानि.
मदनीय मननीयं मन् मन् योग अनीयम्
अनीयर् अत्र एतेषु पदेषु अनीयर् प्रत्ययस्य प्रयोगः कृतः इति तदर्थं दत्तं. पठतु पुनः. आवरणे
आवरणे लिखितः अनीयर् इत्येषः कश्चन प्रत्ययः. एषः प्रत्ययः धातोः अन्ते योज्यते. यथा पठ योग अनीयर् इक्वल् टु पठनीयम्. अत्र पठ इति धातु, अनीयर् इति प्रत्ययः.
पट् इति धातुः, अनीयर् इति प्रत्ययः, पठनीय इति भवति. इट् योगः अ ठ इति भवति, पठनीय इति भवति. अस्तु, पुनः पठामः. अग्रे सुकन्या भगिनी, अधः केचन धातवः सन्ति, तत्र चत्वारः चतुरः धातून् स्वीकृत्य पठतु अत्र.
क्रीडनीयं, रमणीयं, खादनीयं, सहनीयं.
सहनीयं, सह इति धातुः, रम् इति रमते, रमणीयं. तत्र धातुः परस्मैपदिनः वा भवतु, आत्मनेपदिनः वा भवतु, केवलं वयं कुत्र योजयामः, धातुना सह एव योजयामः प्रत्ययान्. तस्मात् कारणात् तत्र ओ आत्मनेपदिनः भवति चेत् कथं भवति, परस्मैपदिनः भवति चेत् कथं भवति इति तादृश तत्र चिन्तनं मास्तु. अग्रे शान्ति भगिनि.
खेलनीयं, मुद् मोदनीयं,
मोदनीयं. मुद् इत्यत्र तत्र ओ उकारस्य स्थाने गुणः भवति, ओ इति भवति.
करणीयं, शोभनीयं,
शोभनीयं. धन्यवादः. अग्रे लक्ष्मी जयन्ति भगिनि.
चलनीयं, योधनीयं, गमनीयं, ईक्षणीयम्.
वन्दना भगिनी.
श्रवणीयं, वृत् वर्तनीयं, स्मृ स्मरणीयं, शि शयनीयं.
शयनीयं, शेते धातुः शेत्, तत्र शि इति किन्तु क्रियापदं शेते इति आत्मनेपदि. वर्तते, वृत् वर्तते इति भवति खलु. अग्रे सौम्या भगिनी.
तृ तरणीयं, यथनीयं, भ्रम भ्रमणीयं, लोक लोकनीयं.
लोकनीयं, लोकते इति तस्य लोकनीयम् इति भवति. अतः एकं वाक्यम् अस्ति, तदपि पठतु सौम्या भगिनी.
अनीयर् एव
इव,
अनीयर् इव अव्यत् इत्यपि अपरः प्रत्ययः अस्ति. यथा यथा अनीयर् प्रत्ययः धातोः भवति, तथैव तव्यत् प्रत्ययः अपि धातोः भवति.
तदेव धातोः एव तत्र योजय, तत्र धातुना सह एव योजयामः. अर्थः तदपि उक्तवती, अर्थः तु समानः, तत्र भिन्नभिन्न अर्थः न, अर्थः समानः, प्रयोगः अपि समानः एव तत्र. अस्तु, उदाहरणम् अत्र दत्तम्. पुनः नित्यानन्दमहोदय, भवान् पठतु.
उदाहरणं पट् योग तव्यत् इक्वल् टु पठितव्यं,
पठितव्यं.
धातु अस्ति तव्यत् प्रत्ययान्तं रूपं, धातु तव्यत् प्रत्ययान्तं रूपं,
तदेव अत्र स्तम्भचतुष्टयम् अस्ति, तदर्थमेव तत्र नाम प्रत्येकस्तम्भस्य नाम दत्तम् अस्ति तत्र धातुः तव्यत् प्रत्ययान्तरूपं किम् इति. अतः पठतु.
क्रीडितव्यम्
अत्र पश्यन्तु अनियर् प्रत्यये प्रयोगे किं रूपम् अस्ति, खादनीयम् इति अस्ति, खादनीयम् इति अस्ति, किन्तु अत्र तव्यत् प्रत्ययस्य योजनेन खादितव्यम् इकारः भवति, खादतव्यम् इति वदन्ति चेत् दोषाय, किञ्चित् भिन्नरीत्या. एवमेव ब्रू
वक्तव्यं,
वक्तव्यम् अस्तु. अग्रे सुकन्या भगिनी. अग्रिमपुटे अस्ति खेल.
खेल इत्युक्ते किं भगिनि? अत्र
खेलति तदेव क्रीडा, अर्थः समानः. हिन्दीभाषायां वदामः खलु खेल् इति, तदेव खेलति इति खेल् इति अन्यः धातुः, अर्थः तु क्रीडने एव. कुत्र भवति भवति अग्रिमपुटे खेल् इति अस्ति, पठतु तत्र प्राप्तवती वा? अग्रिमपुटे अस्ति, इदानीमेव नित्यानन्द महोदय तत्र ब्रू पर्यन्तं पठितवान् अत्र. न शान्तिभगिनी भवती पठतु, सुकन्या भगिनी प्राप्नोतु, अहं न वदामि
पुटसङ्ख्या.
धन्यवादः. खेलितव्यं तत्र अनीयप्रत्यये तत्र खेलनीयम् इति भवति, किन्तु तव्यत् प्रत्ययस्य योजनेन खेलितव्यम् इति किञ्चित् भिन्नरूपं भवति. तत्र सावधानम् आवश्यकं, तत्र समानरूपं न, केवलं खेल् इति धातुः अस्ति, केवलम् अहं तव्यत् अनीयप्रत्ययं योजयित्वा तत्र खेलतव्यं खेलनीयम् इति वदामि, तादृशचिन्तनं मास्तु. तदेव खाद् धातुना सह तदेव अभवत्, खाद् तत्र तव्यत् प्रत्ययस्य योजनेन किं भवति?
खादितव्यं,
खादितव्यं, किन्तु अनीयप्रत्ययस्य योजनेन खादनीयं, रूपं किञ्चित् भिन्नं. सुकन्या भगिनी प्राप्तवती वा? पठतु पठतु.
चलितव्यं, स्रष्टव्यं, गम गन्तव्यं, त्यज त्यक्तव्यं,
त्यक्तव्यं, त्यज धातुः, त्यज धातुः, त्यक्त्वा त्वान्तप्रत्ययं योजयामः चेत् तत्र त्यक्त्वा, तुमुन् प्रत्ययस्य योजनेन त्यक्तुम्, अनन्तरं तवतु प्रत्ययस्य योजनेन त्यक्तवान् त्यक्तवती इति रूपाणि सिद्धानि. अत्र तव्यतनीय प्रत्ययस्य योजनेन तत्र त्यक्तव्यम्, अनन्तरं त्यजनीयम् अनियर् प्रत्ययस्य योजनेन तत्र त्यजनीयम् इति भवति, न तु त्यक्तनीयम् इति न, त्यजनीयं, त्यज् इति धातुः तत्र अनीयप्रत्ययस्य योजनेन त्यजनीयम् इति रूपं सिद्ध्यते. अस्तु अग्रे वन्दना भगिनी.
आं भगिनि. श्रोतव्यं, हा हातव्यं,
गम पठतु, गम पठितं व्या पठितं, श्रु पठतु, श्रोतव्यं,
श्रु श्रोतव्यं, हा हातव्यं, स्मृ स्मर्तव्यं,
भुज् भोक्तव्यं
स्मृ धातोः अनीय प्रत्ययं योजयामः चेत् कथं भवति स्मरणीयम् इति भवति अत्र पश्यतु स्मर्तव्यम् इति अस्ति अस्तु अग्रे इदानीं कस्याः पर्यायः सौम्या भगिनी भवती पठतु
तृ तरितव्यं ओढव्यं भ्रम भ्रमितव्यं वद् वदितव्यम्
अत्रापि भ्रमणीयम् इति भवति अणियप्रत्ययस्य भ्रमणीयम् इति भवति
भगिनि हा दातु अर्थं किं भगिनि हा हा
हा इत्युक्ते तत्र किं टु किल् हन्तुम् इति वदामः खलु तदेव
भगिनि यत्र यत्र वयं क्रीडाङ्गणं शब्दं प्रयोगं वट् टु से वेनेवर् वि डू देट् केन् वि रीप्लेस् इट् बै खेलाङ्गणं तत्र शब्दस्य
न क्रीडति इत्यस्य खेलति
खेल् धातु अपि अर्थम् अपि समानमेव
तत्र क्रीडति इत्यस्य खेलति इति वदामः
क्रीडाङ्गणं शब्दस्य रीप्लेस्मेण्ट् खेलाङ्गणम् अपि वक्तुं शक्नुमः
तत् दृष्ट्वा एव वक्तुं शक्नोमि भवितुम् अर्हति तत्र उत्तमं चिन्तनं प्रश्नः तु उत्तमः एव दृष्ट्वा वदामि तादृशप्रयोगः अस्ति वा इति किमर्थम् इत्युक्ते समासपदं खलु तत् तस्मात् दृष्ट्वा वक्तुं शक्नोमि क्रीडाङ्गणम् इत्येव मया श्रुतम् एतावत् पर्यन्तं भवितुम् अर्हति तत्र अस्तु अत्र खेल् इत्यत्र तु गो टु वाक् इति दत्तम् अस्ति मम दोषः तत्र क्षन्तव्याः खेल् इति अस्ति अहं पश्यतु अत्र तत्रापि खेल् इति एकं पदम् अस्ति खेलति इति अस्ति खेल् इति अस्ति अत्र सर्वेषां कृते तु केवलं टु गो टु वाक् इति दत्तम् किन्तु क्रीडति इत्यस्मिन् अर्थे वक्तुं शक्यते खेलति इति तस्मात् खेलति इत्यपि अस्ति खेल् इति अपि अस्ति ख अनन्तरं ख धातुद्वयम् अस्ति एकः तु खेलति खेलति खेलतः खेलन्ति इति भवति अन्यः खेल् इति भवति
समानमर्थं वा भगिनि
तदपि परस्मैपदीरूपं खेलति इति भवति तदेव दृष्ट्वा वदामि अहम् इदानीं मम एव भ्रमः जायते इदानीं दृष्ट्वा वदामि अहम् अत्र गत्यर्थे एव दत्तमस्ति तत्र तदेव तत्र क्रीडार्थे एव खेल महाप्राण खेल् इत्यस्य तत्र क्रीडायां स्पोर्टिव् प्लेफुल् इत्यस्मिन् अर्थे तत्र खेल इति वदामः चेत् तदपि तस्मिन् अर्थे एव भवति तत्र खेल इत्यस्य गतौ इत्येव दत्तम् अस्ति खेलति इति खेल् इत्यत्र क्रीडायाम् अत्र दृष्ट्वा वदामि खेल इत्यस्य अस्तु अग्रे कुत्रचित् ध्वनिः श्रूयते कृपया म्यूट् कुर्वन्तु कुत्र स्थापितवन्तः इदानीम् अधः एकं वाक्यमस्ति तदपि पठामः पठ्यताम् सौम्या भगिनी भवती एव पठतु तद् वाक्यम्
अनियर् प्रत्ययान्तस्य इव तव्यत् प्रत्ययान्तस्य अपि प्रयोगः प्रायः कर्मणि प्रयोगे भावे प्रयोगे च भवति.
किम् उक्तम्? कर्मणि प्रयोगे भावे प्रयोगे च भवति. भावे प्रयोगे तव्यतनीयप्रत्ययः भवति, सर्वदा कर्मणि प्रयोगे इति न. भावे प्रयोगे अपि धातवः सन्ति खलु, अकर्मकधातवः सन्ति. तस्मात् यदा वयं तव्यतनीयप्रत्ययौ तत्र अकर्मकधातुना सह योजयामः तत्र भावे प्रयोगे भवति. तत्र कथं भवति? इदानीं तिष्ठति, स्था इति धातुः अस्ति. कथं भवति? स्थातव्यम् इति भवति, स्थानीयं स्थातव्यम् इति. बालकेन तत्र कर्मपदं नास्ति, सर्वदा नपुंसकलिङ्गे एकवचने भवति. तावदेव भावे प्रयोगस्य नियमः समानः. पुनः सर्वदा एकवचने नपुंसकलिङ्गे. किमर्थं? कर्मपदं नास्ति. तस्मात् बालकेन स्थातव्यं, बालिकया स्थातव्यं, बालकैः स्थातव्यम् इति भवति. एवमेव हसितव्यं, हसुधातुः अपि अकर्मकधातुः. तस्मात् हसितव्यं, हसनीयम् इति भवति. तत्र बालकैः हसितव्यं, बालकेन हसनीयम् अथवा हसितव्यम् इति एकवचने नपुंसकलिङ्गे भवति. अस्तु, इदानीं पठामः. अधः वाक्यानि सन्ति, वाक्यद्वयं स्वीकृत्य पठामः. नित्यानन्द महोदय, भवान् पठतु. एकम् एकं कर्मणि प्रयोगवाक्यम्, एकं भावे
प्रयोगवाक्यं. गन्तव्यम्, अश्वेन धावनीयम्.
धावनीयम् इति अनीयप्रत्ययः योजितः अत्र. अश्वेन धावनीयम् इति भवति. धाव, तत्र धातुः धाव् इति धातुः अकर्मकः अपि भवति, सकर्मकः अपि भवति. धावति इत्यस्य टु रन् इत्यस्मिन् अर्थे स्वीकुर्मः चेत् अकर्मकधातुः, किन्तु तत्र प्रक्षालनार्थे अपि धाव् इति भवति. यदि अहं वदामि कर्मकरी वस्त्रम् अथवा वस्त्राणि धावति इति वदामि, तत्र कः अर्थः? कर्मकरी वस्त्राणि प्रक्षालयति इत्यस्मिन् अर्थे, वस्त्राणि प्रक्षालयति इत्यस्मिन् अर्थे अहं धावति इत्यपि वक्तुं शक्नोमि. यदा अहं तस्मिन् अर्थे वाक्ये प्रयोगं करोमि तदा सकर्मकः भवति, किन्तु बालकः धावति इति वदामि तत्र अकर्मकः. अस्तु, अत्र धावनीयम् इति भावे प्रयोगः. पश्यतु, सर्वाणि भावे प्रयोगे सर्वेषु वाक्येषु नपुंसकलिङ्ग एकवचनम् एव दृश्यते. अस्तु, अग्रे सुकन्या भगिनि पठतु. योद्धव्यं. वन्दना भगिनि.
बालेन पठनीयं, सर्वैः सत्कार्ये रमणीयम्.
सत्कार्ये रमणीयं, सत्कार्यम् इति न दत्तं, सत्कार्ये इति सप्तमी विभक्तिः तत्र. सर्वैः रमणीयम्. अग्रे शान्ति भगिनि.
गीताय वदनीयं.
गीतया
वदनीयं नायकेन जागरूकेण भवितव्यं.
भवितव्यं, भूधातोः भवितव्यम् इति भवति. नायकेन कीदृशेन भवितव्यं? तत्र जागरूकेण भवितव्यम्. कर्तरिप्रयोगे कथं वदामि अहम् एतद् वाक्यं?
नायकेन
कर्तरिप्रयोगे,
कर्तरि नायकः
नायकः
नायकः जागरूकः
अनन्तरं
भवति
भवति न विद्यर्थे वदतु कर्तरिप्रयोगे विधिलिङ्ग्लकारः न न किमर्थं भवतीयं न कर्तरिप्रयोगे विधिलिङ्ग्लकारः कः भवेत् इदानीं सम्पूर्णवाक्यं वदतु
नायकः जागरूकः भवेत्
भवेत् अस्तु अस्तु इदानीम् अग्रे लक्ष्मी बेनी
मुनिना पठनीयम् अस्माभिः न पठनीयम्
अस्माभिः न पठनीयम् इदानीं वदतु अस्माभिः न पठनीयम् इत्यस्य कर्तरी रूपं वदतु
अस्माभिः वयं न वयं
पतेत् वदतु रूपाणि पत् धातोः सर्वाणि विद्युलिङ्ग्लकाररूपाणि वदतु लक्ष्मी भगिनी
पतेत् पतेत् पतेतां पतेयुः पतेः पतेतां
पतेः वा
पते पतेतं
न मध्यमपुरुष एकवचनं किं
मध्यमपुरुष एकव पतेः
पतेम अत्र वयम् इति भवति तस्मात् वयं न पतेम इति कर्तरि इदानीं सौम्या भगिनी पठतु
भक्तेन नमनीयं भवता न भेतव्यम् सर्वेण करणीयं छात्रैः उपवेष्टव्यम्
उपवेष्टव्यं तस्य इदानीं वदतु छात्रैः उपवेष्टव्यम् इत्यस्य कर्तरीरूपं किम्
छात्रान्
किमर्थं कर्तरिप्रयोगे छात्रैः इति बहुवचने अस्ति
बहुवचनम् ओके ओके रामः छात्राः छात्राः उपवेष्टव्युः वा उपवेष्टव्युः वा उपवेष्टेत
चिन्तयतु
उपवेष्टव्येत्
तव्यत् किमर्थं तव्यत् मास्तु
उपविशति
उपविशेताम् उपविशेयुः इति रूपाणि भवन्ति तस्मात् अत्र छात्राः उपविशेयुः विश् इति धातुः विषेयुः इति भवति अस्तु एवं तत्र तादृशचिन्तनं कुर्वन्तु एतानि वाक्यानि एव स्वीकृत्य सर्वाणि कर्मणि प्रयोगवाक्यानि भावे प्रयोगवाक्यानि सन्ति खलु एतेषां विधिलिङ्गरूपाणि चिन्तयन्तु अस्तु अग्रे इदानीं सर्वेण करणीयम् उपवेष्टव्यम् अनन्तरं चिन्तनीयम् प्रयतनीयम् इति वाक्यमस्ति अभ्यासः कति वाक्यानि सन्ति अत्र दशवाक्यानि सन्ति अस्तु
भगिनी एकः प्रश्नः
पृच्छतु
भवता न भेतव्यं भेतव्यम् इति भीतिः
भीतिः
भगिनी
भीत्यर्थे
धन्यवादः.
बि इत्यस्य गुणः भवति भे इति, इकारस्य ए इति भवति.
धन्यवादः.
अग्रे अभ्यासः. देवः रक्षेत्, अत्र पश्यतु तदेव अभ्यासः अस्ति. अतः कर्तरिप्रयोगे अपि च कर्मणि प्रयोगे वा भावे प्रयोगे वा परिवर्तनं कुर्वन्तु इति तत्र विद्यते. एकैकं वाक्यं तत्र उदाहरणवाक्यं पठित्वा नित्यानन्द महोदय उदाहरणवाक्यं पठतु, अनन्तरं प्रथमं वाक्यं वदतु.
देव रक्षेत, देवेन रक्षणीयं,
रक्षणीयं,
रक्षणीयं.
तत्र मूर्धन्यनकारः षकारः अस्ति, तस्मात् नी इति मूर्धन्यनकारः भवति. सुकन्या भगिनी वाक्यद्वयं, भवान् क्षम्यतां, सात्यकी वद, भवतु.
सात्यकी वदेत्, सात्यकेन
किमर्थं सात्यकेन इति भवति तत्र? सात्यकिः इति अन्तिमवर्णः कः?
पुल्लिङ्गः.
पुल्लिङ्गः, किन्तु का अन्तिमवर्णः कः तत्र?
इकारान्त.
इकारान्त पुल्लिङ्गशब्दस्य तृतीया विभक्तिः का? न, कथं भवति एकवचने कैः भवति वा? हरिशब्दस्य तृतीया विभक्तिः का वदतु, रूपाणि वदतु. हरिशब्दस्य तृतीया विभक्तिरूपाणि कानि वदतु नित्यानन्द महोदय. हरिशब्दस्य तृतीया विभक्तिरूपाणि वदतु. अन्य कोऽपि? न न, हरिशब्दस्य तृतीया विभक्तिरूपाणि हरिणा, हरिभ्यां, हरिभिः, हरिभिः. तदर्थमेव अहं यदा अहं प्रथमं सोपानं पाठितवती पुनः 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 उक्तवती, सर्वे सम्यक् पठन्तु, जानन्तु विभक्तिरूपाणि, नो चेत् एतादृशक्लिष्टम् अनुभवामः एव कर्मणि प्रयोगविषये अथवा भावे प्रयोगे. यदि सम्यक् न जानन्ति विभक्तिरूपाणि क्लिष्टाय, अस्तु. सात्यकिः इदानीं यू शुड् कम् अप् फटाफट्, तत्र उत्तरं वक्तव्यं, उत्तरं वक्तव्यं भवद्भिः. यदा अहं पृच्छामि उत्तरं वक्तव्यं भवद्भिः अथवा दातव्यम् इति, तत्रापि तव्यत् प्रत्ययः इदानीम् उक्तः कर्मणि प्रयोगे. सात्य इदानीं वदतु नित्यानन्द महोदय.
सात्यकी न वदनीयं,
वदनीयं, सात्यकिना वदनीयम्. अग्रे सुकन्या भगिनी वाक्यद्वयं.
ऋषिणा ध्यातव्यं,
ध्यातव्यं ऋषिणा इति तत्र मूर्धन्य नकारः भवति. ऋषिणा ध्यातव्यं, ध्यातव्यं, ध्यानीयम् इति भवति इति चिन्तयामि.
माता पालयेत्, मात्रा, मात्रा पालितव्यं,
मात्रा पालितव्यम् अथवा
पालनीयं,
पालनीयम्. अस्तु, अग्रे शान्ति भगिनी.
योधः नयेत्, योधेन नयेत्, नयनीयन्,
नय
नीयन्,
नीयन् वा
नीयम्,
नयनीयम्,
नयनीयम्,
नयनीयं नयितव्यं नयनीयं नेतव्यं क्षम्यतां नेतव्यं तत्र नेतव्यं नयनीयं एवमेव द्या इत्यत्र अपि वक्ष्यामि अहं तत्र मम सन्देहः अस्ति अग्रे अग्रिमवाक्यं वदतु
कविः रचयेत् कविना रचनीयं रचितव्यं
रचनीयं तु उत्तमं
रचनीयं
रचितव्यं रचनीयं
रचितव्यं रचनीयं रचनीयं
रचनीयं रचितव्यं रचनीयम् इति भवति अग्रे इदानीं कस्याः पर्यायः लक्ष्मीबहिनी अग्रे
धर्मः जयेत् धर्मः जयेत् धर्मेण जयनीयम् जयनीयं
न नी दातु तादृशं भवति
जेतव्यं
गुणकं भवति जेतव्यं
जेतव्यं
जेतव्यम् इति भवति अग्रे
ज्ञानी
पठतु वदतु
ज्ञानी दद्यात् ज्ञानिना दातव्यं 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 नियम् दानीयं दानीयं
तत्र पुनः दा इति अस्ति तत्र दातव्यं पुनः वदामि वक्ष्यामि इदानीं धा इति तत्र द्वितीयं वाक्यं ऋषिः ध्यायेत् इत्यस्य ध्यातव्यं ध्यानीयं रूपद्वयम् अस्तु ध्यातव्यं ध्यानीयम् इति रूपद्वयम् अनन्तरम् इदानीं दा धातुः तस्य अपि अहं वदामि तदेव भवितुम् अर्हति तदापि अहं किञ्चित् दृढीकरोमि दाने दाने अत्र दातव्यं दानीयं जेतव्यम् अहं चिन्तयामि जयनीयम् इति भवितुम् अर्हति तथापि अहं वदामि अहं जी धातुः नेतव्यं नयनीयं तादृशमेव भवति तत्र जयनीयं जेतव्यम् अस्तु स्वीकृतं वा सर्वैः अस्तु इदानीं सौम्या भगिनी अग्रे
धेनुः चरेत्
चरितव्यम् अग्रे
भारवाहकः भारवाहकिनातुः
पूर्वतन पुटे अस्ति पश्यतु
ओढव्यम्
ओढव्यम् अनन्तरं तत्र तव्यत् प्रत्ययः ओढव्यम् अनन्तरं वहनीयम् इति भवति लिखेत् इत्यस्य
लिखेत् इत्यस्य लेखितव्यं लेखनीयम्
लिखितव्यं लेखनीयं
लिखितव्यं
लिख् धातुः लेखनीयम् एकत्र गुणः सम्भवति कार्यं भिन्नं तदेव तत्रैव रूपसिद्धिः भवति खलु तत्रैव किञ्चित् भिन्नरूपाणि भवन्ति तद् किमर्थं प्रत्ययस्य कार्यं तत्र प्रत्ययस्य योजनेन एतादृशभिन्नानि रूपाणि वयं प्राप्नुमः. अस्तु, लिखितव्यं लेखनीयम् इति भवति. तव्यत् प्रत्ययस्य योजनेन लिखितव्यम् इति भवति, लेखनीयम् इति भवति.
न भगिनि, लेखितव्यं
लेखनीयम् इति अस्ति वा? अहं दोषं करोमि, चिन्ता मास्तु.
लिखितव्यम्
इति अस्ति वा? अस्तु,
भवितुं क्षम्यतां.
लेखितव्यं लेखनीयं,
मम दोषः.
काव्यं लेखनीयं, लेखितव्यं.
लेखितव्यम् इति अस्ति वा? अस्तु, मम दोषः.
लेखितव्यं लेखकेन
लेखनीयं.
लेखकेन.
अस्तु, मम दोषः, क्षम्यताम्. एकं निमिषम् अत्र एकं निमिषम् पुस्तके उत्तराणि सन्ति, तथापि किञ्चित् स्पष्टीकरोमि. अहं दोषं करोमि तत्र. अस्तु, अग्रे अग्रिमवाक्यमपि पठतु.
अनियर् प्रत्ययान्तं तव्यत् प्रत्ययान्तं च विशेषणं भवति, अतः तत् विशेषेण विशेषस्योः सामान्यं नियमम् अनुसृत्य विशेषस्य लिङ्गं, विभक्तिं, वचनं च अनुसरति.
अनुसरति. तत्र लेखितव्यं लेखनीयं, तत्र की इति एकत्र भवति, अन्यत्र ख इति भवति, किन्तु ले इत्येव भवति. लेखितव्यं लेखनीयम् इति एव भवति. क्षम्यतां, मया दोषः कृतः. इदानीं किं दत्तम् अस्ति अत्र, उदाहरणानि पश्यामः. किम् उक्तम्? अनियत् प्रत्ययान्तं तव्यत् प्रत्ययान्तं च विशेषणं भवति. पश्यन्तु, इदानीम् अस्माभिः विशेष्यविशेषणं पठितं, तत्र अपि कार्यं भवति. किम् उक्तं? तदेव उक्तवती अहं, बालकेन पाठः पठनीयः. तत्र पाठः इति पुंसि, तस्मात् पठनीयः, पठितव्यः इति भवति. गीता पठनीया, पठितव्या. पुस्तकं पठनीयं, पठितव्यम् इति तत्र विशेषणं भवति. तत्र तदेव उक्तम् अत्रापि, पत्रिका पुस्तकम् इति तदेव दत्तमस्ति. उक्तम् एवमेव तत्र लेखनीयं लेखनीया द्विवचने दत्तमस्ति. पश्यतु, द्वितीयम् उदाहरणमस्ति खलु, कविना काव्यं लेखनीयं लेखितव्यं. द्विवचने पश्यतु, काव्ये लेखनीये, आकारान्तस्त्रीलिङ्गशब्दानाम् अत्र बालिका, बालिके, बालिकाः तदेव भवति. अत्र लेखनीया, लेखनीये, लेखनीयाः इति भवति. So you should have a strong vibhakti, otherwise it is very difficult. And again, in Karmani Prayoga, you should know the lingam also. That is also very important. You cannot keep visheshanam in one lingam and visheshyam in another lingam. Prataktaya na tatra, na bhavati. Yadi tatra kimartam tavyataniyar yete sarve visheshana rupani bhavanti. Tasmata विशेष्यस्य यत् लिङ्गं, यत् वचनं, या विभक्तिः, तदेव अनुसृत्य भवन्ति एते अपि. अस्तु, एतानि रूपाणि तद् किमर्थम् अत्र दत्तं? लिङ्ग उदाहरणार्थं दत्तं छात्रेण इति. तत्र पट्टुधातु स्वीकृत्य, धातुं स्वीकृत्य लिङ्ग, लिङ्ग उदाहरणार्थं. द्वितीयम् उदाहरणमस्ति वचनं, एकवचने, द्विवचने, बहुवचने. तत्र तत्रापि लिङ्गभेदाः भवन्ति. विभक्ति तत्र पश्यन्तु, पश्यामः. वाक्यद्वयं नित्यानन्दमहोदय वाक्यद्वयं पठतु. त्वया, तत्र त्वया
त्वया करणीयं कर्तव्यं कार्यम् एतत् प्रथमाविभक्ति. करणीयं कर्तव्यं कार्यं शीघ्रं कुरु.
करणीयं कार्यं शीघ्रं कुरु, कर्तव्यं कार्यं शीघ्रं कुरु इति द्वितीयविभक्तिप्रयोगः. अत्र नपुंसकलिङ्गे द्वितीया विभक्तिः, तदर्थं दत्तम् अत्र. अग्रे सुकन्या भगिनी.
कविना,
न कविना न, तत्र त्वया इति अस्ति खलु, करणीयेन तद् अभवत्. तृतीयं वाक्यं पठतु. करणीयेन कर्तव्येन
कार्येण श्रेयः प्राप्यते. करणीयाय कर्तव्याय कार्याय समयः दातव्यं
पश्यतु सर्वासु विभक्तिषु भवति. अग्रे शान्ति भगिनी.
करणीयस्य कर्तव्यस्य कार्यस्य
अस्ति वा भवत्याः पुस्तके पञ्चमी विभक्तेः रूपम् अस्ति वा?
करणीयात् कर्तव्यात् कार्यात् मा पलायताम्
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 पुनः पलायताम्.
करणीयात् कर्तव्यात् कार्यात् मा
पलायताम् इति लोट् लकारे अस्ति. पलायते इति आत्मनेपदी. पलायताम् इति तत्र लोट् लकारे अस्ति. तत्र कर्तव्यात् कीदृशात् कार्यात्? कर्तव्यात् कार्यात्
कार्यात्
करणीयात् कार्यात् इति. अग्रे वन्दना भगिनी.
करणीयस्य कर्तव्यस्य कार्यस्य आवलिं कुरु. षष्ठीविभक्ति.
अग्रे सौम्या लक्ष्मी भगिनी.
त्वया करणीये कर्तव्ये कार्ये तव श्रद्धा आवश्यकी.
आवश्यकी, अत्र पश्यतु श्रद्धा आवश्यकी, आसक्तिः आवश्यकी. अयम् अस्माभिः प्रथमे सोपाने पठितम् अस्माभिः. यदा वयं सप्तमी विभक्ति नियमान् पठितवन्तः तत्र आसक्तिः, प्रेम, विश्वासः, श्रद्धा इति एतेषां प्रयोगे सप्तमी विभक्तिः भवति. संस्कृतपठने मम आसक्तिः अस्ति. पठने इति सप्तमी विभक्तिः. संस्कृतपठने मम आसक्तिः. किमर्थम् अत्र आसक्तिः इति प्रयोगः? तस्मात् कुत्र इति भवति प्रश्नः. कुत्र अस्ति भवतः आसक्तिः? मम भवत्याः आसक्तिः इति प्रश्ने सति मम आसक्तिः संस्कृतपठने अस्ति इति सप्तमी विभक्तिः. तस्मात् अत्रापि पश्यन्ति चेत् करणीये कर्तव्ये तव श्रद्धा आवश्यकी. एवमेव पठनीये संस्कृतपाठे भवताम् आसक्तिः आवश्यकी इति अहं वदामि अत्र. पठनी अस्तु, पठनीये संस्कृतपाठे भवताम् आसक्तिः आवश्यकी इति भवति. अस्तु, तृतीयः अभ्यासः अस्ति. अधस्तनकोष्टकात् कः गुणः वर्धनीयः, कः अवगुणः त्यक्तव्यः इति वदत. त्यक्तव्यः वर्धनीयः इति वदतु. एकम् एकम् एव स्वीकृत्य वदामः. अवशिष्टानि वाक्यानि भवन्तः कृत्वा आगच्छन्तु, वर्गम् आगम्य मा कुर्वन्तु. यदा अहं गृहकार्यं ददामि कृत्वा गृहे पुनः एकवारं पठित्वा कृत्वा आगच्छन्तु अहं जानामि पृष्ठभागे उत्तराणि सन्ति इति किन्तु यदा भवन्तः गृहकार्यं कुर्वन्ति तदा मा पश्यन्तु उत्तराणि अदृष्ट्वा एव कर्तुं प्रयत्नं कुर्वन्तु सम्पूर्णम् अभ्यासं कृत्वा तदनन्तरं परिशीलयन्तु मम उत्तराणि तत्र साधूनि वा इति परिशीलनं कुर्वन्तु अस्तु इदानीम् उदाहरणं वाक्यमस्ति मया ज्ञानं वर्धनीयं ममता त्यक्तव्या ममता इति स्त्रीलिङ्गे तस्मात् त्यक्तव्या ज्ञानम् इति नपुंसकलिङ्गे तस्मात् वर्धनीयम् इति अस्ति द्वितीयम् इदानीं पुनः नित्यानन्द महोदय आरम्भं करोतु मया किं किं करणीयम् अथवा अस्माभिः एवं स्वीकरोतु भक्तिः अस्ति
मया भक्ति भक्तिं
भक्तिं किमर्थं कर्मणि प्रयोगे किमर्थं द्वितीयविभक्तिः तत्र ज्ञानम् इति नपुंसकलिङ्गे तस्मात् ज्ञानम् इति दत्तं
मया भक्तिः भक्तिः वर्धनीयं
वर्धनीयं वा
भक्तिः वर्धनीया
वर्धनीया ध महाप्राणधकारः वर्धनीया उच्चारणं सम्यक् कुर्वन्तु सर्वे
वर्धनीया
अनन्तरं ममता अभवत् दर्पः ममता अभवत् अग्रिमपदं किं महोदय तत्र मञ्जुषायां पदानि सन्ति पश्यतु तत्र
दर्पः दर्पः
दर्पेण किमर्थं दर्पेण तत्र मया इति कर्तृपदं तावदेव अस्माभिः मया इति कर्तृपदं भवति मञ्जुषायां ये आनि पदानि दत्तानि तानि सर्वाणि कर्मपदानि तत्र लिङ्गचिन्तनमपि मास्तु तत्र दृष्ट्वा पदं दृष्ट्वा एव वयं वक्तुं शक्नुमः किं लिङ्गम् इति शब्दस्य
मया दर्पः त्यक्तव्यः
त्यजनीयः अथवा त्यक्तव्यः त्यजनीयः सुकन्या भगिनी
भगिनी पुटसङ्ख्या अपि लास्ट्
तृतीयः अभ्यासः अत्र अस्मिन् पाठे एव भवत्याः पुस्तके भिन्नरीत्या अस्ति वा तत्र शब्दाः सन्ति अहं न जाने भवतां पुस्तके कथम् अस्ति इति मम पुस्तके तु तत्र
थर्ड् अभ्यासे कोष्टकस्थ शब्दानां सहायेन तव्यतनि
तदेव कुर्वन्तः स्मः वयं मम पुस्तके दर्पः ममता तदनन्तरं दर्पः इति अस्ति अहं न जाने भवतां पुस्तके किं दत्तम् इति भिन्नरीत्या अस्ति वा मम पुस्तके तु ममता दर्पः इति भिन्नभिन्न अस्तु भवतां पुस्तके यत्किमपि अस्ति तदनुसृत्य वदतु
योगिना अध्ययनं
योगिना वा मम पुस्तके नास्ति वदतु
योगिना अध्ययनं करणीयं योगिः
किमर्थं योगिः तत्र अहं न जाने भवतां पुस्तके किम् अस्ति इति न जाने मम भ्रमः जायते
इदानीं
भवतां पुस्तके तृतीय अभ्यासः कः
विभोषकस्थशब्दानां सहायेन तव्यतनीयप्रत्ययान्तस्य उचितं रूपम् उपयुज्य यथोदाहरणं वाक्यानि
उदाहरणं किं पठतु
योगिना अध्ययनं करणीयम्
अध्ययनम् इति नपुंसकलिङ्गे तस्मात् करणीयम् इति अस्ति
योगिना योगाभ्यासः करणीयः
योगाभ्यास मञ्जुषायां कानि कानि शब्द पदानि सन्ति
योगाभ्यासः सेवाकार्याणि
तद्दृष्ट्वा वदतु इदानीम् एकं वाक्यं वदतु क्रमशः तत्र चिनोतु तत्र योगिः किमर्थं भगिनि
योगिना अध्ययनं करणीयं योगिना अध्ययनम्
अभवत् तद् अभवत् उदाहरणवाक्यं करणीयम् अग्रे गच्छतु
भवत्या सङ्गीतं श्रोतव्या
सङ्गीतं श्रोतव्या वा कर्मपदं कस्मिन् लिङ्गे अस्ति
सङ्गीतं
कस्मिन् लिङ्गे अस्ति
नपुंसकलिङ्गे
श्रोतव्या इति कथं भवति सङ्गीतं श्रोतव्यम् अग्रे
भवत्या प्रार्थना श्रोतव्या
श्रोतव्या वा कर्तव्या श्रोतव्या इति अस्ति वा अस्तु शान्ति भगिनी अहं न जाने भवतां पुस्तके किम् अस्ति इति मम शान्ति भगिनी अग्रे पठतु भवत्याः पुस्तके किम् अस्ति इति अहं न जानामि भवत्याः पुस्तके मम पुस्तकवत् अस्ति वा अस्तु पठतु धृतिः केवलं तत्र वर्धनी वर्ध तत्र वर्धते वृद्ध धातुः अपि च त्यज् धातुम् उपयुज्य एव वाक्यानि रचनीयानि वदतु इदानीं मया धृतिः वर्धनीया तावदेव कः क्लेशः तत्र अवगमने किमर्थम् एतादृशं क्लेशम् अनुभवन्ति इति अहं न जानामि उदाहरणं दृष्ट्वा अपि तादृश क्लेशं किमर्थं तत्र कष्टम् अनुभवन्ति मतिः
भगिनि अत्र मया स्थाने अस्माभिः धृतिः उपयोगं
अस्माभिः तत्र कर्तृपदं यत्किमपि भवतु एकवचने वा द्विवचने वा बहुवचने वा यत्किमपि भवितुम् अर्हति युष्माभिः अस्माभिः मया तेन तैः एतैः एताभिः श्रीलिङ्गे यत्किमपि वक्तुं शक्नुमः छात्रैः तत्र सुकन्या भगिन्याः पुस्तके तत्र योगिना इति दत्तम् अस्ति वदतु अग्रे लक्ष्मी भगिनी
मया मतिः वर्धनीया मया उत्साहः वर्धनीः
उत्साहः इति किं लिङ्गं भगिनि
पुल्लिङ्ग
किमर्थं तत्र नूतनं पदमेव भवति तत्र उत्पादयति वा तत्र
वर्धनीयः
मया क्रोधः त्यक्तव्यः त्यक्तनीयः
त्यजनीयः
त्यजनीयः
त्यक्तव्यः त्यजनीयः एवमेव मोहः प्रेम इति अस्ति खलु तत् स्वीकृत्य वदतु
मया प्रेम किं लिङ्गं भगिनि प्रेमम् अपि न अस्ति
वदतु
प्रेम अकारान्त
न
प्रेमं न प्रेमः अपि न
अन्य कोऽपि
प्रेमा दीर्घ
रामशब्दम् अथवा
न न
स्त्रीलिङ्ग भगिनि प्रेम
नपुंसकलिङ्गे नकारान्तशब्दः कर्मण्वत्
प्रेमन्
जन्मन् तत्र जन्म इति भवति जन्म जन्मनि जन्माणि कर्म कर्मणि कर्माणि एवमेव प्रेम प्रेमणि प्रेमाणि इति भवति प्रेमं न किमर्थं प्रेमं प्रेम एव नकारान्त नपुंसकलिङ्गशब्दः तत्र प्रथमा विभक्ति का प्रेम
मया प्रेम वर्धनीयं
वर्धनीयम् अकारान्तशब्दः न नकारान्तशब्दः तत्र मञ्जूषायां यानि यानि पदानि दत्तानि तानि सर्वाणि तत्र प्रथमाविभक्तिरूपाणि तत्र अस्तु अत्र किमपि परिवर्तनीयं न तत्र परिवर्तन तत्र इदानीं दीर्घसूत्रता इति बहूनि पदानि सन्ति भवन्तः कृत्वा आगच्छन्तु वर्गे सर्वाणि वाक्यानि न कुर्मः वयं वर्गे सर्वाणि वाक्यानि न करणीयानि तत्रापि तव्यतनीयप्रत्ययः न करणीयानि वर्गे
भगिनि मम पुस्तके
तदेव तत्र अहं चिन्तयामि शान्तिभगिन्याः सौम्या भगिन्याः अपि च मम पुस्तकं च पुरातनं तत्र पूर्वं प्रकाशितानि पुस्तकानि अहं चिन्तयामि भवत्याः पुस्तकं तु किञ्चित् नूतनम् अस्ति इति तत्र भिन्नरीत्या यत् यः अभ्यासः अस्ति तम् अभ्यासं कृत्वा आगच्छतु
वयं सर्वाणि वयं यूएस् संस्कृत भारतीय स्टोर्स्
न न पुरातनपुस्तकं किम तत्र मम पुस्तकं तु पूर्वं प्रकाशितम् अस्ति ओल्ड् ओल्ड् एडिशन् तस्मात् कारणात्
यूएस् संस्कृतभाषा
न न न न पृथक् रीत्या न प्रकाशितम् पुरातनं तावदेव अस्तु चतुर्थः अभ्यासः कः एकवचनं बहुवचनम् अस्तु तद् कुर्मः अत्र मम पुस्तके तु तृतीये अभ्यासे अत्र एकविंशतिः वाक्यानि सन्ति एतावत्पर्यन्तं वयं केवलं षट् वाक्यानि कृतवन्तः अवशिष्टानि वाक्यानि भवन्तः कृत्वा आगच्छन्तु अस्तु कृत्वा आगच्छन्तु तत्र यदा मया उक्तम् उत्तरं दृष्ट्वा मा कुर्वन्तु अदृष्ट्वा कर्तुं प्रयत्नं कुर्वन्तु तदनन्तरं प्रश्नः भवति चेत् मां पृच्छन्तु तत्र क्लेशः एव नास्ति किमर्थं तत्र भिन्नभिन्नधातूनां प्रयोगं कृत्वा न कुर्मः एव केवलं धातुद्वयम् एकः तु वर्धनीयं वर्धनीया वर्धनीयः इति एव रूपाणि भवन्ति अन्यस्य तु त्यज् धातोः केवलं धातु द्वयमेव अत्र दत्तम् अग्रे पश्यामः तेन तत्र क्लिष्टः एव नास्ति तत्र मञ्जूषायां तदपि मया उक्तं मञ्जूषायां यानि पदानि सन्ति तत्र प्रथमाविभक्तिरूपाणि किन्तु यदा सौम्या भगिनी तत्र प्रेम इत्यत्र किञ्चित् चिन्तनं कुर्वन्तु तत्र किं लिङ्गम् इति अग्रे चतुर्थम् अभ्यासः कुर्मः इदानीम् उदाहरणवाक्यं पठामः पठन्तु उदाहरणवाक्यं पुनः नित्यानन्द सर्वे एकवारं पठितवन्तः खलु नित्यानन्दमहोदय उदाहरणवाक्यं पठतु अन्म्यूट् कृत्वा पठतु
सैनिकेन युद्धं करणीयं बहुवचनमस्ति सैनिकेन युद्धानि करणीयानि
युद्धम् इति नपुंसकलिङ्गे तस्मात् युद्धानि करणीयम् इत्यस्य बहुवचनं करणीयानि इति द्विवचने वक्तुमिच्छामः चेत् सैनिकेन युद्धे करणीये इति भवति. इदानीं प्रथमं वाक्यं वदतु महोदय.
मया उत्तमं चित्रं द्रष्टव्यं. बहुवचनमस्ति. मया मया उत्तमानि उत्तमानि चित्राणि द्रष्टव्यानि
द्रष्टव्यानि. अत्र विशेषणम् उत्तमम् इति अस्ति, द्रष्टव्यमपि तादृशं भवति. तस्मात् द्वयोः पदयोः परिवर्तनं भवेत्, केवलं चित्राणि इति तदपि न. सुकन्याबेनि अग्रे द्वितीयं वाक्यं. तत्र कः अभ्यासः भगिनि? अभ्यासः कः?
एकवचनं बहुवचनम् अस्माभिः सत्यवचनानि एव वदितव्यानि.
किमर्थं तत्र वक्तव्यम् इत्यस्य बहुवचनं किम्?
वक्तव्यानि
वक्तव्यानि तावदेव
वक्तव्यानि.
वच्युधातोः वक्तव्यम् इति भवति. तत्र वधुधातोः भिन्नं भवति, वक्तव्यानि इति भवति. अस्माभिः सत्यवचनानि अथवा मया इत्यपि, तत्र कर्तृपदं यत्किमपि भवेत्. अस्माभिः, मया, युष्माभिः, अत्र मया इति दत्तम् अस्ति, भवत्या अत्र अस्माभिः इति उक्तम् अस्तु. शान्तिभगिनि तृतीयं वाक्यं.
भवत्या शिशुः पालनीयः. भवत्या शिशवः पालनीयाः.
पालनीयाः. जयन्तीलक्ष्मी भगिनी.
मया दुर्गणाः त्यक्तव्याः. त्वया दुर्गुणः त्यक्तव्यः.
त्यक्तव्यः. सौम्या भगिनी.
बहुवचनरूपं महिलया रङ्गवल्यः रचनीयाः. महिलया रङ्गोली.
किमर्थं रङ्गोली?
रङ्गवली रचनीया.
रचनीया. वन्दना भगिनी.
त्वया पर्वदिने नूतनवस्त्रं धर्तव्यम्. त्वया पर्वदिने नूतनवस्त्राणि धर्तव्यानि.
धर्तव्यानि. अस्तु, सप्तमवाक्यमपि वदतु.
मया सुन्दरचित्राणि लेखनीयानि. मया सुन्दरचित्रं लेखनीयम्.
लेखनीयम्. सुकन्या भगिनि.
सर्वैः सुभाषितं कण्ठस्थीकरणीयम्. सर्वैः सुभाषितानि कण्ठस्थीकरणीयानि.
शान्ति भगिनि. नवमं वाक्यं.
शिक्षकेन पाठनीयाः. शिक्षकेन पाठनीयः.
नित्यानन्द महोदय. दशमं वाक्यम्. एतया नाटकानि द्रष्टव्यानि.
द्रष्टव्यानि. एतया नाटकं द्रष्टव्यं.
द्रष्टव्यं. लक्ष्मी
भगिनि, अत्र नाटकं वा नाटकः वा किं साधु इति?
किमर्थम् अत्र नाटकानि इति दत्तम् अस्ति खलु, नाटकम् इति नपुंसकलिङ्गे.
फलं फले फलानि. रामः रामौ राम.
तदेव. कः प्रश्नः?
कर्मपदं सेकेण्ड् विभक्ति न भगिनि
नपुंसकलिङ्गं खलु तस्मात् अत्र प्रथमा विभक्तौ नाटकानि द्रष्टव्यानि इति प्रथमा विभक्तौ नाटकं द्रष्टव्यम् इति भवति लक्ष्मी
धरणीयानि साधु साधु वा धरणीयानि
किं धरणीयानि
दर्तव्यं बहुवचनं दर्तव्यानि
भवितुम् अर्हति धरणीयं
भवत्या प्रश्नाः प्रष्टव्याः भवत्या प्रश्नः प्रष्टव्यः
प्रष्टव्यः सौम्या भगिनी द्वादशवर्षं
सर्वैः वृक्षः आरोपणीयः सर्वैः वृक्षाणि आरोपणीयानि
किमर्थं वृक्षाणि तत्र वृक्षः इति अस्ति
बहुवचनरूपं
वृक्षः
वृक्षाः आरोपणीयाः
आरोपणीयाः अस्तु अत्र स्थापयामः तस्मात् अहं पुनः किं कुर्वन्तु एकवारं सम्पूर्णतया एकवारं पठन्तु यानि यानि पुटानि अस्माभिः अद्य पठितानि अत्रापि सर्वत्र पठितानि पठितानि तानि सर्वाणि पुनः एकवारं पठन्तु अभ्यासान् गृहकार्यं च कृत्वा आगच्छन्तु अवशिष्टानि वाक्यानि सन्ति तत्र पञ्चविंशतिवाक्यानि सन्ति अत्र चतुर्थे अभ्यासे पञ्चविंशतिवाक्यानि सन्ति तानि सर्वाणि कृत्वा आगच्छन्तु प्रश्नाः सन्ति चेत् अग्रिमसप्ताहे वयं चर्चां कुर्मः अस्तु अत्र स्थापयामः अद्यतनपाठात् प्रश्नाः सन्ति वा नास्ति चेत् शान्तिमन्त्रम् उक्त्वा विरमामः वदतु सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग्भवेत्शान्तिः धन्यवादः पुनर्मिलामः
धन्यवादः
धन्यवादः.